एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः सर्वकारे सहभागिनाम् राजनीतिकदलानाम् शीर्षनेतृणाम् उपवेशे सम्प्रत्येव क्रियान्वितानाम् अध्यादेशानाम् संघीय संसदः द्वाभ्यामेव सदनाभ्याम् यथाशीघ्रम् अनुमोदनाय सहमतिर्धृता वर्तते बालुवा टारावर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे उपवेशे यथाशीघ्रम् अध्यादेशानाम् पारितीकरणाय सहमतिधृतास्तीति उपवेशानन्तरम् गृहमन्त्री रमेश लेखकः असूचयत् समेषामेव अध्यादेशानाम् विस्थापनम् आवश्यकमस्तीत्यतः दलेषु विमर्शनानन्तरम् सर्वेषाम् भावनाम् समाविश्य प्रक्रिया प्रारप्स्यते इति गृहमन्त्री लेखकः अज्ञापयत् गृहमन्त्री लेखक जनता समाजवादी दल नेपालस्य नेतृभि सह सहमति सम्भूता स्थिति च अगदत् एवमेव उपवेशे सर्वकारस्य संसदस्य कार्यस्य प्रभावकारितायाः विषयेऽपि विमृष्टमिति गृहमन्त्री लेखकः अज्ञापयत् उपवेशे प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा एमाले दलस्य वरिष्ठ उपाध्यक्ष ईश्वर पोखरेलः नेपाली कांग्रेस दलस्य उपसभापति पूर्णबहादुर खड्का जसपा दलस्य अध्यक्ष अशोक कुमार राई लोकतान्त्रिक समाजवादी दलस्य अध्यक्ष महन्त ठाकुरः नागरिकोन्मुक्ति दलस्य अध्यक्ष रंजिता श्रेष्ठ जनमत दलस्य उपाध्यक्ष अब्दुल खान च सहभागिनः आसन् पञ्चविंशत्युत्तर द्विसहस्रतम ख्रैष्टाब्दस्य पोखरा भ्रमणवर्षस्य उद्घाटनक्रमे आहतस्य उपप्रधानार्थमन्त्रिणः विष्णुप्रसाद पौडेलस्य पोखरा महानगरपालिकायाः प्रमुखस्य धनराज आचार्यस्य काष्ठमण्डपस्य कीर्तिपुर ज्वलन चिकित्सालये उपचार विधीयमानो वर्तते पोखरायां प्राथमिकोपचारानन्तरम् उभौ नेतारौ कीर्तिपुर ज्वलन चिकित्सालये आनीतौ आस्ताम् ज्वलन चिकित्सालयस्य निर्देशकः डाक्टर किरण कर्मी द्वयोरपि चिकित्सालये आनयनानन्तरम् उपचारः जायमानो वर्तते इति असूचयत् उभयोः अवस्था संकटमुक्ता स्थिति च प्रमुख राजनैतिक दलानाम् नेतृषु संविधान संशोधनस्य विषये ऐकमतम् दृष्टमस्ति ह्य ललितपुरे आयोजिते संविधान संशोधनस्य सन्दर्भे सार्वजनिक संवाद कार्यक्रमे नेपाली कांग्रेस दलस्य नेता डाक्टर मिनेन्द्र रिजालः नेकपा एमाले दलस्य नेता रघुजी पन्त माओवादी केन्द्रस्य नेत्री रेखा शर्मा राष्ट्रिय स्वतन्त्र दलस्य नेता सन्तोष परियार च संविधान संशोधनस्य पक्षे समानाम् धारणाम् व्यक्तवन्तः कार्यक्रमे नेपाली कांग्रेस दलस्य नेता डाक्टर मिनेन्द्र रिजालः संविधानस्य क्रियान्वयनस्य क्रमे आपतितानाम् जटिलतानाम् परिहाराय संविधान संशोधनस्य आवश्यकतायामनुभूयमानायाम् सत्यामपि भूयो भूय सर्वकार परिवर्तनस्य कारणात् काठिन्यम् सम्भूतमस्तीति अवोचत् नेकपा एमाले दलस्य नेता रघुजी पन्त देशस्य संविधानस्य समयानुसारेण संशोधनम् अपरिहार्यम् भवतीत्यतः अभ्यासस्य क्रमे दृष्टायाः काठिन्य परिस्थितेः सम्बोधनाय गठबन्धन सर्वकारेण संशोधनस्य अग्रे सारितोस्थिति उदैरयत् नेकपा माओवादी केन्द्रस्य नेत्री रेखा शर्मा संविधान संशोधनम् औचित्यपूर्णमस्तीति अगदत् राष्ट्रिय स्वतन्त्र दलस्य नेता सन्तोष परियार सर्वेषाम् राजनीतिक दलानाम् सहमतौ संविधान संशोधनम् जनहिताय भवतीति अवोचत् वैदेशिक वृत्तिपार्जनस्य आकर्षक वेतनस्य च प्रलोभने निपात्य बेलायत क्यानाडा अजरबैजान मोरिसस आदिषु देशेषु प्रेषणस्य व्याजेन वञ्चनकार्य संलग्नाः त्रयोजनाः निगृहिताः सन्ति निगृहितेषु धादिङ जनपदस्य त्रिपुरा सुन्दरी ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य दिनेश अधिकारी सिन्धुपाल्चोक जनपदस्य बारा विशेनगरपालिकायाः सप्तमवडा क्षेत्रस्य एकचत्वारिंशत् वर्षीय गणेश बहादुर थापा काभ्रे पलाञ्चोक जनपदस्य नमो बुद्ध नगरपालिकाया चतुर्थ वडा क्षेत्रस्य उनचत्वारिंशत् वर्षीय दिनेश प्रसाद अधिकारी च वर्तन्ते इति प्रेरणा ज्ञापितमस्ति। बेलायत, क्यानाडा, अजरबैजान, मरिशस आदि देशेष् प्रेषणस्य व्याजेन एतैः रूप्यकाणि वञ्चितानि वर्तन्ते इति वेदनायाः प्राप्ते पश्चात् एते जनाः निगृताः सन्तीति प्रेरणा ज्ञापितमस्ति। गण्डकी प्रदेश सर्वकारेण मुस्ताङ जनपदस्य दामोदर कुण्डस्य याक खर्कस्थान योजकस्य मार्गस्य स्तरोन्नतये 10 कोट्यः रूप्यकाणि विनियुक्तानि वर्तन्ते। आर्थिक विषय मन्त्रालयेन भौतिक पूर्वाधार विकास यातायात व्यवस्था मन्त्रालयस्य अन्तर्गतम् वर्तमानार्थिक वर्षे निर्माण प्रक्रियाया अग्रेवर्धनत्वेन मुस्ताङ जनपदस्य अस्य मार्गस्य कृते 10 कोट्यः रूप्यकाणि स्रोतः सुनिश्चितानि वर्तन्ते। दाङ जनपदस्य घोराई उपमहानगरपालिकाया सहयोगेन षष्ठ वडा कार्यालयेन वडा क्षेत्रस्य प्रति ग्रामम् समावेशनत्वेन ट्युवेल जल नलिकायाः निर्माणस्य पश्चात् तत्रत्यं कृषिक्षेत्रम् हरितम् सम्भूतमस्ति। जलस्य सौविध्य प्राप्तेः पश्चात् द्वादशस्वेव मासेषु कृषिकर्मणि अनवरोधस्य पश्चात् कृषकाणाम् आयार्जनेऽपि वृद्धिः सम्भूता अस्ति। वडा कार्यालयेन प्रत्येकं वसतौ जलनलिकायाः माध्यमेन भूमिगत जलेन कृषिक्षेत्रस्य सेचनस्य व्यवस्थायाः विधानस्य पश्चात् कृषिक्षेत्रस्य सेचनस्य समस्यायाः समाधानेन सहैव पेयजल समस्यायाश्च समाधानम् सम्भूतमस्तीति षष्ठ वडा क्षेत्रस्य प्रेम चौधरी ज्ञापयति। वैदिक ज्ञान परम्परायाः संरक्षणाय संस्कृत विज्ञैः बलम् प्रदत्तम् वर्तते। पूर्वेद्यु काष्ठमण्डपस्य वेद विद्यासमे सनातन विद्वत् परिषदः वार्षिक कार्यक्रमे अधिवेशनस्य च अवसरे उपस्थितैः विद्वद्भिः संस्कृत ज्ञान परम्परायाः यथावत् संरक्षणाय बलम् प्रदत्तमस्ति। अधिवेशनेन प्राध्यापकस्य डाक्टर दीर्घराज घिमिरे विदस्य आध्यक्ष्ये त्रयोदश सदस्यीया सनातन विद्वत् परिषद संघटिता वर्तते। कार्यक्रमे आसन्न 50 संस्कृत विदुषां सहभागिता आसीत्। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत दलम केन्द्रबिन्दो निधाय कार्यम कर्तुम बलम ददाति। नेपाल प्रेस युनियन संघेन ह्य चितवन जनपदे आयोजिते पत्रकार सम्मेलने प्रवक्ता महत व्यक्तितः उपरि संस्था केन्द्रितानाम गतिविधिनाम संचालनाय बलम दत्तवान। अपरस्मिन् प्रसंगे प्रवक्ता डाक्टर महत दलस्य महाधिवेशनस्य आगामिनि विक्रमवर्षे सम्भावना नास्तीति स्पष्टीकृतवान्। नेपाल तैल निगमेन पेट्रोल इन्धनस्य मूल्यम् समायोजितम् वर्तते। निगम संचालक समितेः ह्यस्तनोपवेशेन पेट्रोल तैल इन्धनस्य मूल्य प्रतिलिटरमितम् 1 रूप्यकम् वर्धितमस्ति। डीजेल इन्धनस्य मृत्तिका तैलस्य च मूल्य प्रतिलिटरमितम् 4 रूप्यकाणि न्यूनीकृतानि वर्तन्ते। इति समाचाराः।